ओम शिर्वाच आज्ञप्तास्तेतदोदीत्या चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेता जैरभ्युतदायुताः ददुशुस्ते ततो दिवि मीषद्दासां व्यवस्थितां सिंहस्योपरि शैलेन्द्र शृङ्गे महति काञ्चने ते दृष्ट्वासां समादातुमुद्यमं चक्रुरुद्धिताः आकृष्टचापासिधरास्तदान्ये तत्समीपगाः ततः कोपं चकारोच्य अम्बिका दानवीं प्रति कोपेन चास्या वदनं मषीवर्णमभूत्तदा भ्रुकुटीकुटिलात्तस्यां ललाटबलगादृतं कालीकरालवदना विनिष्क्रान्तासिव्यपाशिनी विचित्रकट्वाङ्गधरा नरमाला विभूषणां दीपि चर्मभरीधानां शुष्कमांसादिभैरवाम् अतिविस्तारवदना जिह्वालनभीषणां निमग्नारक्तनेना नादापूरितदिङ्मुखा सा वेगेनाभिपतितान् घातयन्ती महासुरान् सैन्ये तत्र सुराधीनामपेक्षेत तद्बलं पार्श्निग्रहाङ्कुशग्रहयोधगुण्डा समन्वितान् समादायैकहस्तेन मुखे चिक्षेपवारणान् तथैव योगोधं तुरगै रथं सारिणा सह निक्षिप्य वक्त्रे दशने चर्व्यन्त्यति वैरवम् एकं जिग्राह केशेषु ग्रीवायामथ चापरं पादेनाक्रम्य चैवान्यमुरसान्यमबोधयत् तैर्मुक्तानि च शस्त्राणि महास्त्राणि तदासुरैः मुखेन जग्राहरुष दशनैर्मतितान्यपि फलिनां तद्बलं सर्वम् असुराणां दुरात्मनां ममर्दा वक्ष्येच्छान्यानन्याञ्चाधारयेत्तदा असिनानिहिता केचित् केचित् खड्वाङ्गधारिताः जग्मुर्विनाशमसुरा दन्ताग्राभिगतास्तदा क्षणेन तद्बलं सर्वम् असुराणां निपातितं दृष्ट्वा चण्डोपजुद्राव तां कालीमतिभीषणां शरभर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः छादयामासचक्रैश्च मुण्डक्षिप्तैस्सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखं बभूर्यथार्कबिम्बानि सुबहूनिकनोदरं ततो जहासादृशा भीमं भैरवनादिनी कालीकरालवक्त्रान्तर्दुर्दर्शजनोज्ज्वला उत्थाय च महासिंहं देवी चण्डमथावत गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् अथ मुण्डोऽभ्युदावत्तां दृष्ट्वा चण्डं निपातितं तमप्युपातयेद्भूमौ सा खड्गाभिगतं मृषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीद्यं दिशो भेजेव यातुरं शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहासमिश्रमभ्येत्ति चण्डिकां मया तव अत्रोपकृतौ चण्डमुण्डो महाभुषु युद्धयज्ञे स्वयं शुम्भं निशुञ्चं चहनिष्यसि ऋषिरुवाच तावानुतो ततो दृष्ट्वा चण्डमुण्डो महासुरु उवाच कालीं कल्याणि दलितं चण्डिकावचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता चामुण्डेत ततो लोके ख्याता देवी भविष्यसि ओं श्री मार्कण्डेयपुराणे सावर्णीयमनन्द्रे देवीमहात्म्ये चण्डमुण्डोतो नाम सप्तमः ओं तत्सत्।